गणपतिगुं भवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नो देवः सेदसादनम् प्रणो देवी सरस्वती वाजेभ वाजिनीवती धीनाम वित्रियवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातकिषु शिवतमा शिवम् बभूवते धनुः शिवाचरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवाचन्तमया गिरिशन्ताभिजागजेः यामिषुम् गिरिशन्तहस्तेऽभिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु माघिगुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा न सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोच ददे वक्ता प्रथमो देव्योऽभिषक् अहे गच्छ सर्वागान्यम् भगन् सर्वा आच्चयातु धान्यः असव्यस्ताम्रो अरुण उत बभ्रुत्सु मङ्गलः ये चे मागुम् रुद्रा अपितो दिक्षुश्रितात् सकत्रचो वैशागुम् हेटगे महे असव्यो वसर्पति नीलग्रीवो विलोकितः उतैनम् गोपा अदृशन्नदृशन्नुतहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषेके अधोगे अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्ज धन्वनस्त्वमुभयोर्रात्रियोर्ज्याम् याच्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सकत्राक्षशते शुधे निषेद्य शल्याणाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येष व आभुरस्य निशम् गतिः या ते हेतर्मे दुष्टमहत्ते बभूवते धनुः तयात्मान् विश्वतत्त्वमयक्ष्मया परिभुजा नमस्ते अत्वायुधाया नातताय दृष्टवेगे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अधोर्यगिषु दिस्तवारे आत्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యపాగవే నాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య
పశూనాం పతయే
నమో నమః. సత్వింజరాగ్య త్రిషీమతే పధీనాం పతయే నమో నమో. బభ్లుషాయ విద్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టాణాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయ తథా వినేక్షేత్రాణాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ పతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివత్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రంతయతే భక్తీనాం పతయే నమో నమ. కృత్స్నవేతాయ ధావతే సత్వనాం పతయే నమః. నమస్తగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. ककुभाग निषंगिणे सेनानां पतये नमो नमो. निषंगिण गिषुधिमते
तस्करानां पतये
नमो नमो. वंचते परिवंचते स्तायूनां पतये नमो नमो. निचेरवे परिचराग्यारण्यानां पतये नमो नमः. శృకాభ్యో జిగాగుంద్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో నక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణేషిణే గిరిచరాగ్య కులుంచానాం పతయే నమో నమ. యేషు మద్భ్యో ధన్వాభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రదిదధానేభ్యశ్చ వో నమో నమ. ఆగచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ. ఆసేనేభ్య శయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. తిష్టద్భ్యో దావద్భ్యశ్చ వో నమో నమ. సభాభ్య సభాపదిభ్యశ్చ వో నమో నమో. అశ్వేభ్యోశ్వపదిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్య త్రిగుంహతేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో ప్రాతపదిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః చుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపదిభ్యశ్చ వో నమో నమ. సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః. క్షత్రభ్య ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಃ ತಕ್ಷಕ್ಯೋರಥಕಾರೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಃ ಕುಂಜಟ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಗೆ ಶುಕ್ರಭ್ಯೋ ಧನ್ವಕೃಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಃ ಸ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಚರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಚಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಡುಟ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ಪಾಪ್ಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಪಾಯ ಚ ನಮ ಆಶವೇ ಚಾಚಿರಾಯ ಚ ನಮ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮ ಓರ್ಮ್ಯಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮ ಪೂರ್ವಜಾಯ ಚ
ಮರಜಾಯ ಚ ನಮೋ
ಮಧ್ಯಭಾಗ್ಯ ಚ ಪಗಲ್ಭಾಗ್ಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಗ್ಯ ಚ ನಮ ಸೋಭ್ಯಾಗ್ಯ ಚ ಪ್ರತಿಸತ್ಯಾಗ್ಯ ಚ ನಮೋ ಯಾಮ್ಯಾಗ್ಯ ಚ ಕ್ಷೇಮ್ಯಾಗ್ಯ ಚ ನಮ ಉರ್ವತ್ಯಾಗ್ಯ ಚ ಖಲ್ಯಾಗ್ಯ ಚ ನಮ
ಶೋಕ್ಯಾಯ ಚಾವಸಾದ್ಯಾಯ
ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮ ಆಶುಷೇಣಾಯ ಚ ಶುರಧಾಯ ಚ ನಮ ಶೂರಾಯ ಚ ವಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ವಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಘನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಟವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮ ತೀಕ್ಷ್ಣೇ ಚ ವೇಚಾಯುಧಿನೇ ಚ ನಮ ತ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮ ಸೋದ್ಯಾಯ ಚ ಸದತ್ ಯಾಗ್ಯ ಚ ನಮೋ ನಾದ್ಯಾಗ್ಯ ಚ ವೈಶಂತಾಗ್ಯ ಚ ನಮ ಕೋಪ್ಯಾಗ್ಯ ಚ ಪಟ್ಯಾಗ್ಯ ಚ ನಮೋ ವಶ್ಯಾಗ್ಯ ಚ ವಶ್ಯಾಗ್ಯ ಚ ನಮೋ ಮೇಘ್ಯಾಗ್ಯ ಚ ವಿದ್ಯುತ್ಯಾಗ್ಯ ಚ ನಮ ಈದ್ರಿಯಾಗ್ಯ ಚ ತಪ್ಯಾಗ್ಯ ಚ ನಮೋ ವಾತ್ಯಾಗ್ಯ ಚ ರೇಷ್ಮಿಯಾಗ್ಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇವಥಾಯ ಚ ದೋರೇವಥಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಕರಿಕೇಶೇಭ್ಯೋ ನಮ ತಾರಾಯ ನಮ ಚಂಬವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮ ಶಂಕರಾಯ ಚ ಮಯತ್ಕರಾಯ ಚ ನಮ శివాయ చ శివతరాయ చ నమస్తేర్త్యాయ చ కోద్యాయ చ నమపాద్యాయ చ వాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆలాద్యాయ చ లాద్యాయ చ నమః షష్ట్యాయ చ భేన్యాయ చ నమః సికత్యాయ చ ప్రవాక్యాయ చ నమః హిరణ్యాయ చ ప్రపత్యాయ చ నమః కేగం శిలాయ చ క్షగణాయ చ నమః కవర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేక్యాయ చ నమః కాట్యాయ చ గవరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుం సభ్యాయ చ రజస్యాయ చ నమః షష్ట్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్ధ్యాయ చ సూర్యాయ చ నమః పర్ణ్యాయ చ వర్ణషద్యాయ చ నమో పగురమాణాయ చ భిగ్రతే చ నమః ఆఖితతే చ ప్రఖితతే చ నమో కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్మత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః త్రాపే అంధసత్పదే దరిద్రన్నీలలోహిత ఏషాం పురుషాణామేషాం పశూనాం మా భేర్మారోమో ఏషాం కించనామవత్ యాతే రుద్ర శివా తనో శివా విశ్వాఖ భేషజే శివా రుద్రస్య భేషజే తయానో మృడ జీవసేకే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయత్వేరాయ సుమరామహేమతిం యథా నశ్యమసద్విపదే చతుష్పదే విశ్వం గుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రో తనో మయత్కృతి క్షయత్వేరాయ నమసా విధేమతే యచ్చం చయోశ్చ మనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వధే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏమాన ఆయుషి మానో గోషు మానో అశ్వేషురేరిషః వీరాన్మానో రుద్రభామితో వరేర్ అవిష్మంతో నమసా విధేమతే ఆరాతే గోగ్రముత పోరుషగ్నే క్షయద్వేరాయ సుం నమస్మేతే అస్తు రక్షా జనో అదిజ దేవ బ్రూహ్యతా జన శర్మ యచ్చ ద్విబరుహాః సుహి శ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్తుముగ్రం మృడా చరిత్రే రుద్రస్తవానో అన్యంతే ఆత్మన్నివ బంధు సేనాః పరిణో రుద్రస్య హేతృణక్తు పరిత్వేషస్య దుర్మతిరఘాయో అవస్థిరా మగవద్భ్యస్తనుష్మీరుస్తోకాయ తనయాయ మృడయా మీరుష్టమ శివతమ శివో నోమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్తిం వసా నవాచర పినాకం బిభ్రదాగహే వికిరిద విలోకిత నమస్తే అస్తు భగవః व्यास्ते सहस्रगुं हेतयोन्यमत्मन्निव पन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अतिभौम्या तेषागुं सहस्रयो जरेव तन्वानि तन्मसे अस्मिन्महत्यर्णवेन्तरिक्षे भव अधि नीलग्रीवाच्छितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाच्छितिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सत्त्वञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कवर्दिनः ये अन्येषु विविद्यन्ते गात्रेषु विपदो जनान् ये पथाम् पतिरक्षय ऐरभृदाय व्युतः ये तीर्थाणि प्रचरन्ति सुगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसकत्र योजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवत्तेभ्यो दशप्ता चेर्दशलक्षिणा दशप्रते चेर्दशोऽते चेर्दशोऽर्धात्तेभ्यो नमस्ते नो मृणयन्तु तेयम् दिश्वो यश्च नो वेष्टितम् भो जम् हे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मोक्षेयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्यो मत्यायहन्तवे तान् यज्ञस्य मायया सर्वानव यजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि समुष्टु हि यः सुषुस्वदन्वायो विश्वस्य क्षयति वेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषयो यगु शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः विष्णो सजोष सेवा वर्धन्तु वाङ्गिरः
धुम्नैर्वाजेभिरागतम्
वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिद्धिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे स्वच्च मे चित्तं च महाधीतं च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च महोजश्च मे सहश्च महायुश्च मे जरा च महात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जयेष्ठ्यं च महाधिपत्यं च मे मन्यश्च मे भामश्च मे मश्च मे मश्च मे देवा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्वा च मे त्रागुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगत् च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्धिश्च मे सपीतिश्च मे कृशश्च मे वृष्टिश्च मे जैत्रं च मौद्धिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे प्रेहयश्च मे यवाश्च मे माषाश्च मे पिलाश्च मे मुद्दाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च महापश्च मे वेरुधश्च मोषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे
Bhutam cha me bhutish cha me vasu cha me vasatish cha me karma cha me shaktish cha me attash cha ma emash cha ma itish cha me gatish cha me agnish cha ma indrash cha me somash cha ma indrash cha me savita cha ma indrash cha me saraswati cha ma indrash cha me Pusha cha ma indras cha me, Brahaspatis cha ma indras cha me, Mitras cha ma indras cha me, Varunas cha ma indras cha me, Dashta cha ma indras cha me, Dhata cha ma indras cha me, Vishtus cha ma indras cha me, Shvino cha ma indras cha me, Marutas cha ma indras cha me, Vishve cha me, Deva indras cha me, Prithivi cha ma indras cha me, Tariksham cha ma indras cha me, Dyaus cha ma indras cha me, Deshas cha ma indras cha me, Modha cha ma indras cha me, Prajapatis cha ma indras cha me, Agumshuscha me, Rashmishcha me, Dabhyascha me, Dhipatishcha ma Upagumshuscha me, Antaryamascha ma, Aindravayavascha me, Maitra Varunascha ma, Ashvinascha me, Pratiprasthanascha me, Shukrascha me, Manthicha ma, Agrajanascha me, Vaishvadevascha me, Dhruvascha me, Vaishvanarascha marutugrahascha me, Tikrakhyascha ma, Aindragnascha me, Vaishvadevascha me, Marutvatiyascha me, Mahendrascha ma, Adityascha me, Savitrascha me, Sarasvatascha me, Paushnascha me, Patnivatascha me, Haryojanascha me, Idvascha me, Barhishcha me, Vedischa me, Drishniyascha me, Suchascha me, Chamasascha me, Gravanascha me, Swaravascha ma, Uparavascha me, Dhishabane cha me, Drona kalashascha me, Vayavyani cha me, Putavriccha ma, Adhavaniyascha ma, Agni dham cha me, Havirdhanam cha me, Grahascha me, Sadascha me, Purodashascha me, Pachatascha me, Avritascha me, Swagakarascha me, Agnischa me, Dharmascha me, Trascha me, Suryascha me, Pranascha me, Swamedascha me, Prithivicha me, Ditischa me, Ditischa me, Dyauscha me, Shakvari Rangulayodishascha me, Yajnena kalpantam vriccha me, samacha me, stomascha me, yajuscha me, dikshacha me, tapascha marutuscha me, vratamcha me, horatrayo, rishtya brahatratantarecha me, yajnena kalpetam, garbhascha me, vatsascha me, trayavischa me, trayavicha me, dityavacha me, dityauhicha me, panchavischa me, panchavicha me, trivatsascha me, trivatsacha me, turyavacha me, turyauhicha me, Pashtavaccha me, Pashtauhi cha ma, Ukshacha me, Vashacha marushabhascha me, Vehaccha me, Nadvancha me, Dhenuscha ma, Ayur yajnena kalpatam, Prano yajnena kalpatam, Apano yajnena kalpatam, Vyano yajnena कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च मेकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मेकविगुंशतिश्च मे त्रयो विगुंशतिश्च मे पञ्च विगुंशतिश्च मे सप्त विगुंशतिश्च मे नव विगुंशतिश्च मेकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे शौच मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे षाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यष्टिरश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा दे बहुर्मनुर्यज्ञने बृहस्पतिरुक्था मदानिषगुं त्रिषद्विश्वे देवासोक्तवाच पृथिवीवात मामाहिगुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुत्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तं वा देवा अवन्तु शोभाय पितरो नु मदन्तु शान्ति 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 ॐ अत्रिणात्वा कृमे हन्मे कर्णेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुं राजा अप्येषागस्तपतिर्हतः अधो माताधो पिता अधो स्थूराः अधो क्षुद्राः अधो कृष्णा अधो श्वेताः अधो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्य श्वेतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तथा हि तत् खण्भन्नसि ॐ शान्ति शान्ति शान्तिः भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्टुवागुंसत्तनुभिः यजेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिट्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् दत्त्वमसि
त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यम् हृतं वच्मि सत्यं वच्मि अवत्त्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात् अवदक्षिणात् अवचोर्ध्वात् अवाधरात् सर्वतो माम् पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं जन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठते सर्वं जगदिदं त्वयि लयमेष्यते सर्वं जगदिदं त्वयि प्रत्येते त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वात्मदाने त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुत्वम् रुद्रत्वमिन्द्रत्वमग्नित्वम् वायुत्वम् सूर्यत्वम् चन्द्रमात्वम् ब्रह्मभोर्भुवस्वभरोम् गणादिम् पूर्वमुच्चार्य वर्णादीम् तदनन्तरम् अनुस्वारम् परतरः अध्येन्दुलसितम् तारेण रुद्धम् एतत्तव मनुस्वरूपम् गकारपूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादस्सन्धानम् सगुंहितात् सन्धिः सैषा गणेश विद्या गणक ऋषिः निसृत्तायत्रे छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्दिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्गुशधारिणम् रथम् च वरदम् हस्तैर्बिभ्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पै सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते पुरुषात्परम् एवं ध्यायते यो नित्यं स योगी योगिनां वरः नमो व्रातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अत्तुलम्बोदराये कदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो